ओम नमो भगवते वासुदेवाय। अथ द्वादशोऽध्यायः। ऋषिरुवाच एवं जिहासुर नृपदेहमाजौ मृत्युं वरं विजयान् मन्यमानः। शूलं प्रग्रह्याभ्यपतत् सुरेन्द्रं यथा महापुरुषं कैटभोऽप्सु। ततो युगान्ताग्निकठोरजिह्वमाविद्य शूलं तरसा सुरेन्द्रः। क्षिप्त्वा महेन्द्राय विनद्य वीरो हतोऽसि पापे तिरुषा जगाद। खापतत् विचलद्ग्रहोल्कवन्निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः। वज्रेण वज्री शतपर्वणाच्छिनत् भुजं च तस्योरगराजभोगम्। छिन्नैकबाहुः परिघेण वृत्रः संरब्धासाद्य गृहीतवज्रम्। हनौ तताडेन्द्रमथामरेभं वज्रं च हस्तान्यपतन्मघोनः। वृत्रस्य कर्मातिमहाद्भुतं तत् सुरासुराश्चारणसिद्धसङ्घाः। अपूजयंस्तत्पुरुहूतसङ्कटं निरीक्ष्य हाहेति विचक्रुशुर्भृशम्। इन्द्रो न वज्रं जगृहे विलज्जितश्च्युतं स्वहस्तादरिसन्निधौ पुनः। तमाह वृत्रो हरात्तवज्रो जहि स्वशत्रुं न विषादकालः। युयुत्सतां कुत्रचिदाततायिनां जय सदैकत्र न वै परात्मनां। विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम्। लोकाः सपाला यस्येमे श्वसन्ति विवशावशे। द्विजा इव शिचाबद्धा सकालैः कारणम्। ओजःसहो बलं प्राणमृतं मृत्युमेव च। तमज्ञायजनो हेतुमात्मानं मन्यते जडम्। यथा दारुमयी नारी यथा यन्त्रमयो मृगः। एवं भूतानि मघमन्निषतन्त्राणि विद्धि भोः। पुरुषः प्रकृतिर्व्यक्तमात्मा भूतेन्द्रियाशयाः। शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात्। अविद्वानेवमात्मानं मन्यते नीशमीश्वरम्। भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम्। आयुश्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः। भवन्त्येव हि तत्काले यथा निच्छोर्विपर्ययाः। तस्मादकीर्तियशोर्जयापजययोरपि समस्यात् सुखदुःखाभ्यां मृत्युजीवितयोस्तथा। सत्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः। तत्र साक्षिणमात्मानं यो वेद न सबध्यते। पश्यमां निर्जितं शक्रविकृणायुधभुजं मृधे। घटमानं यथा शक्ति तव प्राणजिहीर्षया। प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः। अत्र न ज्ञायते मुष्य जयो मुष्य पराजयः। श्रीशुक उवाच इन्द्रो वृत्रवच श्रुत्वा गतालीकमपूजयत्। गृहीतवज्र प्रहसंस्तमाः गतविस्मयः। इन्द्र उवाच अहो दानवसिद्धोऽसि यस्य ते मतिरीदृशी। भक्तः सर्वात्मनात्मानं सुहृदं जगदीश्वरम्। भवानतार्षीन् मायां वै वैष्णवीं जनमोहिनीं। यद्विहायासुरं भावं महापुरुषताङ्गतः। खल्विदं महदाश्चर्यं यद्रजः प्रकृतेस्तव। वासुदेवे भगवति सत्त्वात्मनिदृढामतिः। यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे। विक्रीडतो मृताम्बोधौ किं क्षुद्रैः खातकोदकैः। श्रीशुक उवाच इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप। युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पति। आविध्य परिघं वृत्रः कार्ष्णाय समरिन्दमः। इन्द्राय प्राहिणोद्घोरं वामहस्तेन मारिष। स तु वृत्रस्य परिघं करं च करभोपमम्। चिच्छेदयुगपद्देवो वज्रेण शतपर्वणा। दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवो सुरः। छिन्नपक्षो यथा गोत्रः खाद्भ्रष्टो वज्रिणा हतः। कृत्वा धरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुं। नभो गम्भीरवक्त्रेण लेलिहोल्बणजिह्वया। दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निवजगत्रयम्। अतिमात्रमहाकाय आक्षिपं सरसा गिरीन्। गिरिराट्पादचारीव पद्भ्यां निर्जरयन्महीं। जग्रासस समासाद्य वज्रिणं सह वाहनम्। महाप्राणो महावीर्यो महासर्प इव द्विपम्। वृत्रग्रस्तं तमालक्ष्य स प्रजापतयः सुराः। हा कष्टमिति निर्विण्णाश्चक्रुषुः समहर्षयः। निकीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः। महापुरुषसन्नद्धो योगमायाबलेन च। भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद्विभुः। उच्चकर्तशिरः शत्रोर्गिरिशृङ्गमिवौजसा। वज्रस्तु तत्कन्धरमाशु वेगः कृन्तन् समन्तात् परिवर्तमानः। न्यपातयत्तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये। तदा च खेदुन्दुभयो विने दुर्गन्धर्वसिद्धा समहर्षिसङ्घाः। वार्त्रघ्नलिङ्गैस्तमभिष्टुवान् मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् वृत्रस्य देहान्निष्क्रान्तमात्मज्योतिररिन्दम पश्यताम् सर्वलोकानामलोकम् समपद्यत। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठस्कन्धे वृत्रवधो नाम द्वादशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।